अथ नवमः पाठः। रामो लक्ष्मणः सीता च दण्डकवनवासिनो भवन्। तत्र रामेण बहवो राक्षसा निशाचारिणो विराधादयो हतः। एकदा तु शूर्पणखा नाम राक्षसी राघवस्याश्रममागच्छत् तम् चाब्रवीत्, राम रूपी भवसि, त्वाम् कामये, मामद्य परिणय। तव पिता गृहिणी भविष्यामीति। तत्श्रुत्वा ताम् रामः प्रत्यवदत्, मम सीता भार्या ततस्त्वाम् प्रणेतुम् न शक्नोमि। तदयम् लक्ष्मणनामधेयो मद्भ्राता त्वाम् परिणयेरिति। स तु लक्ष्मणस्ताम् पर्यहसत्। ततः क्रोधसंयुक्ता शूर्पणखा सीतामतिबलेनाक्रामत्। रामेणाज्ञापितो लक्ष्मणस्तस्या नासाङ्करणौ चाकृन्तत्।